एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वकारेण आगामिनः आर्थिक वर्षस्य कृते धान्यस्य न्यूनतमं समर्थन मूल्यं निर्धारितमस्ति। ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन वर्षाकालिक धान्यस्य न्यूनतमं समर्थन मूल्यं प्रति क्विंटल परिमितस्य स्थूल धान्यस्य 3,000+ रूप्यकाणि, प्रति क्विंटल परिमितस्य मध्यम परिमाणस्य धान्यस्य 3,000+ रूप्यकाणि निर्धारितानि सन्ति इति सर्वकारस्य प्रवक्ता शिक्षा खेल कूर्द मन्त्री सस्मित पोखरेलः असूचयत्। उपवेशेन नेपाल चीन देशयोः योजिकायाः चिलिमे केरूङ विद्युत प्रसारण सरण्याः आयोजनायाः क्रियान्वयनाय चीन सर्वकारं प्रति प्रेष्यमाणं प्रत्युत्तर पत्रं स्वीकृतमस्ति। एवमेव उपवेशेन नेपाल नागरिक उड्डयन प्राधिकरणस्य महानिर्देशक पदे सहसचिवः मुकेश डंगोलः नियुक्तोऽस्ति च मन्त्री पोखरेलः असूचयत्। प्रधानमन्त्रिणा बालेन्द्र साहिन अद्य काष्ठमण्डपस्थै यूरोपीय संघे आबद्धानां देशानां आवासीयतर राजदूतैः कार्यक्रम प्रमुखैश्च सह मेलवार्ता करिष्यते। अद्य पूर्वाह्नस्य सार्धैकादशवादने प्रधानमन्त्री मन्त्री परिषदः कार्यालये प्रधानमन्त्रिणा सह एतेषां मेलवार्तायाः कार्यक्रमः निर्धारितोऽस्ति। एतदवसरे नेपालस्य प्राथमिकतायाः विषयेषु द्विपक्षीयस्य सम्बन्धस्य सहकार्यस्य च विविधेषु शेषु च विम्रक्ष्यते इति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। एतत्पूर्वं चैत्रमासस्य 25 दिवसे प्रधानमन्त्रिणा साहेन नेपालवर्तिभिः विभिन्नानां देशानां राजदूतैः कूटनीतिक नियोगानां प्रमुखैश्च सह सामूहिक मेलवार्ता विहितासीत्। सर्वकारेण सार्वजनिक सेवा प्रवाहस्य नागरिकाणां प्रतिगृहं प्रापणस्य उद्देश्येन प्रारब्धा सर्वकारीय प्रपत्र वाहन सेवा सम्प्रति देशस्य 6 जनपदेषु विस्तारिता अस्ति। पत्राचार सेवा विभागेन सर्वकारीय सेवा वितरण प्रणालीं वैद्युताङ्कनयुतां सम्पाद्य व्यवस्थितकरणस्य प्रयासस्य स्वरूपं पारपत्र यानचालकानुमतिपत्र शैक्षिक प्रमाणपत्रादीनां प्रपत्राणां प्रतिगृहं प्रापणस्य कार्यं तीव्रं विहितमस्ति इति संसूचितं वर्तते। नेपाली कांग्रेस दलेन क्रियाशील सदस्यतायाः अद्यावधिक कार्यं सहजतया द्रुतगत्या च अग्रे वर्धयितुं पदाधिकारिभ्यः केन्द्रीय सदस्यभ्यश्च दायित्वं प्रदत्तमस्ति। सभापतेः गगन कुमार थापा विदस्य उपस्थितौ कांग्रेस दल सदस्यता व्यवस्थापन केन्द्रीय समितेः उपवेशेन सर्वाः संघटनात्मक संरचनाः प्रयुज्य अनुगमनाय समितेः पक्षतः सप्तषु एव प्रदेशेषु केन्द्रीय पदाधिकारिभ्यः केन्द्रीय सदस्यभ्यश्च दायित्वं प्रदत्तमस्ति। उपवेशेन डॉ डीला संग्रौला इत्यस्यै कोशी प्रदेशस्य कृते, बहादुर सिंह लामा इत्यस्मै बागमती प्रदेशस्य कृते, उदय शमशेर राणा विधाय सुदूरपश्चिम प्रदेशस्य कृते, मुक्ता कुमारी यादव इत्यस्यै गण्डकी प्रदेशस्य कृते, जानकी सिंह इत्यस्यै कर्णाली प्रदेशस्य कृते, देवराज चालिसे विधाय मधेश प्रदेशस्य कृते, अमरसिंह पुन इत्यस्मै च लुम्बिनी प्रदेशस्य कृते दायित्वं प्रदत्तमस्ति इति कार्यवाहक मुख्य सचिवः कृष्ण प्रसाद दुलालः असूचयत्। दलस्य 15तमस्य महाधिवेशनस्य कृते नवीनाया क्रियाशील सदस्यतायाः वितरणस्य कार्यं विविधै कारणै एतत्पूर्वं नवीकरणाय अवशिष्टानां सदस्यानां नवीकरणं विधाय केन्द्रीय प्रणाल्यां प्रवेशनस्य कार्यं च ज्येष्ठ मासस्य 21 दिवसं यावत् सम्पादयितुम् उपवेशेन निर्णीतमस्ति। सर्वोच्च न्यायालयेन पूर्व प्रधानमन्त्रिणं शेरबहादुर देउवाभिधं तदीय पत्नीं आरजू राणा देउवाभिधान च न निग्रहीतुम् अन्तरिमादेश प्रदत्तोऽस्ति। न्यायाधीशयोः महेश शर्मा पौडेलस्य नित्यानन्द पाण्डेयस्य च संयुक्त न्यायपीठेन देउवा दम्पत्योः निग्रहणं रोद्धुम् अन्तरिमादेश प्रदत्तोऽस्ति। न्यायालयेन देउवा दम्पत्योः काष्ठमण्डप जनपद न्यायालयात् क्रियान्वितं निग्रहण सम्बद्धं प्रपत्रम् आधृत्य न निग्रहीतुम् आदेशः प्रदत्तोऽस्ति। विधि न्याय संसदीय विषय मन्त्री सोविता गौतमः गदति यौनजन्य हिंसा पीडितेभ्यो जनेभ्यो न्यायं सुनिश्चेतुं मन्त्रालयः प्रतिबद्धोऽस्ति। प्रतिनिधिसभायाः अन्तर्गतायाः विधि न्याय मानवाधिकार समितेः ह्य सीमा प्रासादे उपविष्टे उपवेशे मन्त्री गौतमः महिलासु बालबालिकासु च जायमानाम् यौन हिंसान सांजालिका पराधान च न्यूनीकर्तुम् नीतिगत सुधारस्य प्रक्रिया अग्रे वर्धिता स्थिति असूचयत्। तदवसरे मन्त्री गौतमः रेडियो नेपालात् प्रसारितेन विधि सम्बद्ध कार्यक्रमेण प्रतिग्रामं विधे शिक्षायाः प्रवर्धनाय सहयोगः प्राप्तोऽस्तीति च उक्तवती आसीत्। सांसदैः देशस्य नियमविपरीततया विहितं व्ययं 7 खर्वः 55 अब्जानि च रूप्यकाणि प्राप्तानि सन्तीत्यतः व्ययं व्यवस्थापयितुं सर्वैः गभीरैर्भाव्यमित्यत्र बलं दत्तमस्ति। प्रतिनिधिसभायाः सार्वजनिक लेखा समितेः ह्यस्तनोपवेशे सांसदाः विधे परिपालनस्य आर्थिक पारदर्शितायाः उत्तरवाहित्वस्य च अभावेन देशस्य नियमविपरीततया विहितस्य व्ययस्य अवस्था नैराश्यजनिका सम्भूता अस्ति इति उक्तवन्तः। उपवेशे विभिन्नानां मन्त्रालयानां पक्षतः सचिवैः सहसचिवैश्च मन्त्रालयानाम् अन्तर्गतानां निकायानाम् अनियमित व्ययस्यावस्थायाः महालेखा परीक्षकस्य 63 प्रतिवेदनेन प्रदर्शितस्य वित्त व्यवस्थापनस्यावस्थायाः सम्परीक्षणस्य कृते मन्त्रालयेन विहितानां कार्याणां च विषयेषु विज्ञापितम् आसीत्। प्रतिनिधिसभायाः अन्तर्गतायाः विधि न्याय मानवाधिकार समितेः स्तनोपवेशे सांसदैः अस्थायि सुरक्षणावासेषु स्थापितानां नागरिकाणां तत्कालं पुनस्थापनायै अभियाचितं वर्तते। समितेः ह्यसीम प्रासादे उपविष्टे उपवेशे सांसदाः समित्या प्रतीक्षा केन्द्राणां स्थलगतम् अनुगमनं कृत्वा निर्मितं प्रतिवेदनम् आधृत्य विहिते विमर्शने गृहावासहीनानां जनानां उचित व्यवस्थां विधाय पुनस्थापनायाः दायित्वं राज्यस्य अस्ति इति बलं दत्तवन्तः। भक्तपुर जनपद समन्वय समितेः प्रमुखः ईश्वर बहादुर थापा ह्य दिवंगतोऽस्ति। रेडियो नेपालस्य पूर्व कर्मचारी च प्रमुखः थापा पूर्वेद्युः उपचारस्य क्रमे काष्ठमण्डपस्य महाराजगंजवर्तिनी शिक्षण चिकित्सालय 65 वर्षाणां वयसि दिवंगतो वर्तते। थापा हृदय सम्बद्ध रोगेण उच्च रक्तचापस्य समस्यायाश्च चिकित्सालये उपचाररत आसीत्। प्रतिनिधिसभायाः उपवेशः अद्य पूर्वाह्नस्य 11 निर्धारितो वर्तते। उपवेशे संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिणा खड्गराज पौडेलेन 81-2000 विक्रम वर्षीयं पर्यटन विधेयकमाधृत्य विचार्यतामिति निगद्य प्रस्तावस्य प्रस्तुतेः कार्यसूची अस्ति इति संघीय संसद सचिवालयेन ज्ञापितं वर्तते।